अथ अच्युताष्टकम् अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिं श्रीधरं माधवं गोपिकावल्लभै जानकीनायकं रामचन्द्रं भजे। अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितं इन्दिरा मन्दिरै चेतसा सुन्दरं देवकी नन्दनं नन्दजं सन्दधे। विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मिणी रागिणे जानकी जानये वल्लवी वल्लभायार्चितायात्मने कंसवे ध्वंसिने वंशिने ते नमः। कृष्णगोविन्द हे रामनारायणं श्रीपते वासुदेवाजित श्रीनिधि अच्युतानन्त हे माधवाधोक्षजन् द्वारकानायक द्रौपदी रक्षकः। राक्षसक्षोभित सीतया शोभितो दण्डकारण्य भूपुण्यता कारणः लक्ष्मणेनान्वितो वानरै सेवितो गस्त्य सम्पूजितो राघवः पातु माम्। धेनुकारिष्टकानिष्टकृद्विषिहा केशिहा कंसरुद्वंशिका वादकः पूतना कोपकस् सूरजाखेलनो बालगोपालकः पातु मां सर्वदा। विद्युदुद्योतवत् प्रस्फुरद्वाससं प्रावृढं भोदवत् प्रोल्लसद्विग्रहं वन्यया मालया शोभितोरस्थलन् लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे। कुन्तलैः कुन्तलैर्भ्राजमानाननं रत्नमौलिल्लसत्कुण्डलं गण्डयोः हारकेयूरकं कङ्कणप्रोज्ज्वलं किङ्किणीमञ्जुलं श्यामलन्तं भजे। अच्युतस्याष्टकैः पठेदिष्टदं प्रेमतः प्रत्यहं पुरुषः सस्पृहं वृत्ततस्सुन्दरं कर्तृवेश्वम्भरस्तस्य वाश्यो हरिर्जायते सत्वरं तस्य वाश्यो हरिर्जायते सत्वरं तस्य वाश्यो हरिर्जायते सत्वरम्। इति श्रीमच्छङ्कराचार्यकृतम् अच्युताष्टकं सम्पूर्णम्।